यो ओषवाचम् ब्रमहे भरामहे गिर इन्द्राजसदने विवस्वतः नो चिद्धिरत्नम् ससताभिवाविदन्नदुष्टुतिर्द्रविणो देषु शस्यते दुरो अश्वस्य दुर इन्द्रगोरसि दुरो जवस्य वसुन इनस्पतिः शिक्षा नरः प्रदिभो अकामकर्षणः सखा सखेभ्यस्तमिदङ्ग्रणीमसि शचीव इन्द्रपुरकृद्यमत्तमत वेदिदमभितश्चेकिते वसो अतः सङ्ग्रभ्याभिभूत आभरमात्मा यतो जरितुः काममूनजीः एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिङ्गोभिरश्विना इन्द्रेण दस्यम् दरयन्त इन्दभिर्युतद्वेष समिषारभेमहि समिन्द्रराजा समिषारभेमहि संवाजेभिः पुरुश्चन्द्रैरभिद्युभिः सन् देव्या प्रमत्या वीरशुष्मजागो अग्रजाश्वावत्यारभेमहि ते त्वामदा अमदन्तानि वृष्ट्या ते सोमा सोवृत्रहत्येषु सत्पते यत्कारवेदशवृत्राण्यप्रतिबर्हिष्मतेनि सहस्राणि बर्हयाः युधायुधमुपघेदेशि धृष्णुजा पुरा पुरम् समिदम् हंस्योजसा नम् व्याजदिन्द्रसख्या परावतिनि बर्हयो नमु चिन्नाममायिनम् त्वङ्करञ्जमुदपर्णयम् वधेस्ते ज्येष्ठयातिथिग्वस्य वर्तने त्वम् शतावङ्ग्रदस्याभिधत्पुरो नानुदः परिशोता ऋजिष्वना त्वमेताञ्जनराज्ञोद्विर्दशा बन्धुना सुश्रवसोपजग्मुषाः षष्टिम् सहस्रा नवतिन्नव श्रुतोनि चक्रेण रथ्या दुष्पदा वृणक त्वमाविथ सुश्रवसन्तबोधिभिस्तभत्रामभिरिन्द्रतोर्वजाणम् त्वमस्मै कुत्समतिथिक्वमाजुम् महेराग्नेजोने अरन्धनायः य उद्रचेन्द्रदेवगो पासखायस्ते शिवतमा असामा त्वाम् स्तोषामत्वजा सुवीराद्राघीय आजुः प्रतरन्दधानाः